नमस्कारः सर्वेषां पुनः न्यायवर्गे स्वागतं.
नमस्कारः.
नमस्कारः भगिनि. अस्तु, तर्हि गतवर्गे किं कृतवन्तः इति पुनरावर्तनं किञ्चित् कृत्वा अग्रे सरेम. गतवर्गे अस्माकं मूलविषयः आसीत् अन्योन्याभावः इति. अन्योन्य अभावः, अन्योन्याभावः इति मूलविषयः आसीत्. तत्र अन्योन्यभावस्य ज्ञानार्थम् अस्माभिः तादात्म्यसम्बन्धः इत्युक्ते किम् इति ज्ञातव्यमासीत्. वयं किं कृतवन्तः, कार्यकारणभावं स्वीकृत्य तादात्म्यसम्बन्धस्य अवगमनं सम्पादितवन्तः. इत्युक्ते कपालः घटस्य कारणं, कपालः कार्याधिकरणम् अपि. तर्हि कारणस्य निकषत्रयम् आसीत् खलु, कार्याधिकरणे सर्वदा स्थातव्यं, कार्याधिकरणे स्थातव्यं, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति यद् कारणमिति मन्यामहे तस्य निकषत्रयम् इति दृष्टवन्तः. तर्हि कपालः कारणं भूत्वा कार्याधिकरणे स्वस्मिन् कथं स्थास्यति इति प्रश्नः उदेति. तदर्थं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन भविष्यति इति उत्तरं प्राप्तम्. तर्हि तादात्म्यसम्बन्धः इति तादृशसम्बन्धः येन सर्वे अपि पदार्थाः स्वस्मिन् भवेयुः इति. घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, पटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति इति प्रतीतिः. तर्हि अन्योन्याभावः, अन्योन्याभावः इत्युक्ते किम् इति प्रश्ने कृते तत्र उत्तरमस्ति यत् किमपि वस्तु तादात्म्यसम्बन्धेन अपरत्र नास्ति इति एव तस्य वस्तुनः अन्योन्याभावः इति. नाम घटः स्वस्मिन् तादात्म्येन सम्बन्धेन वर्तते, परन्तु तेनैव तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. तादृशघटाभावः एव अन्योन्याभावः. सरलरीत्या वदामश्चेत् अन्योन्याभावः तादात्म्यसम्बन्धावच्छिन्न इति वक्तुं शक्नुमः. तादात्म्यसम्बन्धावच्छिन्नः अभावः अन्योन्याभावः इति. अन्योन्याभावस्य अपरनाम भेदः इति. तर्हि मनसि भवेत् यत् तादात्म्यसम्बन्धेन एकं वस्तु अपरत्र नास्ति इति तादृशः अभावः एव अन्योन्याभावः अथवा भेदः इति उच्यते. इति कृत्वा भेदः, भेदस्य चतुर्विधत्वमपि अस्माभिः परिशीलितम् आसीत्. अधुना पुनः किञ्चित् अधिकरणस्यापि भवति अनुयोगी इति संज्ञा इत्यस्य विषये पुनः किञ्चित् पठेम, यतोहि सर्वेषां स्पष्टता न जाता इति भाति. एकत्रिंशत्तमे पृष्ठे अस्ति सः विषयः, अधिकरणस्यापि भवति अनुयोगी इति संज्ञा इति. कृपया पश्यन्तु सर्वे.
भगिनि, प्रश्नद्वयमस्ति. स्वरूपसम्बन्धः तादात्म्यसम्बन्धयोः भेदः सम्यक्तया न ज्ञातः एवम् अवच्छिन्नस्य भवती पूर्वम् उक्तवती, किञ्चित् शार्ट् फार्म् अस्ति तदपि कृपया पुनः वदतु.
अधुना वयं दृष्टवन्तः पटत्वम् इति अस्ति पटे. पटे प्रतियोगिता अपि अस्ति खलु, पटे पटत्वम् अस्ति, पटे प्रतियोगिता अपि अस्ति. तयोः मध्ये अवच्छेदक अवच्छेद्यभावः वर्तते इति भगिनि. अस्तु, पटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति प्रतियोगिता इति. अष्टविंशत्तमे पृष्ठे एतत् सर्वम् अस्ति. पश्यतु, घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति इत्यस्य सर्वस्य स्थाने लघुना मार्गेण पटत्वावच्छिन्नप्रतियोगिता अथवा घटत्वावच्छिन्नप्रतियोगिता इति वक्तुं शक्यते. इत्युक्ते पटत्वम् अवच्छेदकं भवति, अवच्छेद्यं भवति यत्किमपि अनन्तरम् आगच्छति, प्रतियोगिता यत्किमपि. तद्वदेव अन्योन्याभावस्थले तादात्म्यसम्बन्धावच्छिन्नाभावः इति उक्तवती अहम्. इत्युक्ते अन्योन्याभावस्थले तादात्म्यसम्बन्धस्य प्राधान्यं, सम्बन्धः अवच्छेदकः भवति. सम्बन्धः अवच्छेदकः भवति इत्युक्ते सम्बन्धः अयम् अभावः अपरस्मात् भिन्नः इति प्रदर्शयति. तर्हि अन्योन्याभावः अपरस्मात् भिन्नः किमर्थम् इति चेत् सः अभावः तादात्म्यसम्बन्धावच्छिन्नः इति वक्तुं शक्यते. इत्येव उक्ता. अपि च स्वरूपसम्बन्धः तादात्म्यसम्बन्धः भेदः कः इति पृष्टवती खलु. तादात्म्यसम्बन्धः कोऽपि ध्वनिः अस्ति. अस्तु अस्तु. हा प्रायः पृष्ठ भवत्या पृष्ठभागे. हा तादात्म्यसम्बन्धः तादृशः सम्बन्धः येन एकः पदार्थः स्वस्मिन् भवति इति तादात्म्यसम्बन्धः. विशिष्टसम्बन्धः सर्वे पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन भवेयुः इति वार्ता भगिनि. स्वरूपसम्बन्धः कुत्र स्वीक्रियते इति चेत् यत्र संयोगः कार्यं न करोति, समवायः न कार्यं करोति इति दृष्टवन्तः. द्रव्ययोः मध्ये एव संयोगः भवति. अपि च द्रव्ययोः एकम् अवयवी अपरं द्रव्यम् अवयवः इति चेत् तत्र समवायः. अपि च पञ्चसु स्थलेषु समवायः भवति इति दृष्टवन्तः. परन्तु अधुना प्रश्नः आगच्छति, अभावः कुत्रचित् अस्ति चेत् अभावः केन सम्बन्धेन कुत्रचित् भवति इति चेत् स्वरूपसम्बन्धेन. प्रतियोगिता कुत्रचित् केन सम्बन्धेन इत्युक्ते स्वरूपसम्बन्धेन. स्वरूपसम्बन्धः इत्युक्ते तादृशः सम्बन्धः इत्युक्ते स्वस्य रूपेण एव प्रदर्शितः इति वार्ता. घटे प्रतियोगिता अस्ति इति घटं दृष्ट्वा एव, घटस्य स्वरूपं दृष्ट्वा एव जानीमः खलु. तादृशसम्बन्धः अस्ति प्रतियोगिता घटयोः. तद्वदेव अवच्छेदकता, अवच्छेद्यता इत्यादिषु स्थलेषु स्वरूपसम्बन्धः इति स्वीक्रियते. परन्तु तादात्म्यम् इति विशेषः सम्बन्धः, प्रत्येकं वस्तु स्वस्मिन् तादात्म्येन भवति इति वदनार्थं तादात्म्यसम्बन्धः स्वीकृतः. परन्तु स्वरूपसम्बन्धस्थले वस्तुद्वयं भवति इति ज्ञेयम्. घटाभावः भूतले इत्युक्ते भूतलं घटाभावः, तयोः मध्ये स्वरूपसम्बन्धः. घटे प्रतियोगिता इति चेत् प्रतियोगिता घटः इति वस्तुद्वयं पुनः अस्तु. परन्तु तादात्म्यस्थले एकमेव वस्तु, तस्य स्वस्मिन् सम्बन्धः तादात्म्यः इति.
धन्यवादः.
अस्तु, बहु समीचीनम्. अस्तु, के के आगतवन्तः नूतनतया, नामानि कृपया.
अहं श्रीधरः, नमस्कारः.
नमस्कारः महोदय. अनन्तरं
शिवराम.
नमस्कारः महोदय. अनन्तरं कोऽपि अस्ति वा? सीमा भगिनी, विजया भगिनी, रघुपतिमहोदय, बालसुब्रह्मण्यमहोदय, पुष्पा भगिनी, मेहुलमहोदय, जगन्नाथमहोदय, भानुचैतन्यमहोदय शृणोति इति, श्रीधरमहोदय, शिवराम महोदय खलु. राधिका भगिनी अस्ति वा? अस्तु, अग्रे गच्छेम तर्हि. हा, अधुना पुनः एकत्रिंशत् इति पृष्ठसङ्ख्या, तस्मात् आरभ्य पठेम. अधिकरणस्यापि भवति अनुयोगी इति संज्ञा इत्यस्मात् आरभ्य. तर्हि सीमा भगिनी आरब्धुमिच्छति वा?
आं भगिनि. अधिकरणस्यापि भवति अनुयोगी इति संज्ञा. अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः अनुयोगिता अपि उक्ता. अस्य च अनुयोगिता शब्दस्य अन्यत्रापि दृश्यते. न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगी इति व्यवहारः दृश्यते, यथा भूतलं घटानुयोगी. अत्र भूतलम् अनुयोगी चेत् अनुयोगिता भूतले भवति. इयं च अनुयोगिता न अभावनिष्ठविरोधरूपा, किन्तु अधिकरणनिष्ठधर्म इति अधिकरणता एव. तथा च भूतले घटानुयोगिता अस्ति इत्युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. एतावता भगिनि, अग्रे पठामि.
तावत् भगिनि, कृपया.
ओके ओके. चतुर्विधः अभावाः पूर्वं निरूपिताः. तस्मिन् समये तस्य अभावस्य निश्चयः विरोधः अस्ति सः अनियोगिता इति उक्ता इदानीम् अनियोगितायाः अन्यः प्रयोगः निरूपितः न्यायग्रन्थेषु अधिकरणस्यापि अनियोगिता अस्ति इति व्यवहारः दृश्यते यथा घटः भूतले अस्ति तर्हि भूतलः घटानुयोगी इति व्यवहारः दृश्यते भूतलम् अनियोगी भवति भूतले अनियोगिता अस्ति सा अनुयोगिता अभावनिष्ठविरोधरूपा नास्ति किन्तु सा अनियोगिता अधिकरणस्य धर्म अस्ति यथा अधिकरणता अतः यथा तथा भूतले घटानुयोगी अस्ति अनुयोगिता अस्ति इति उक्तौ भूतले घटाधिकरणता अस्ति इति अर्थः ग्राह्यः भवति
हा बहु समीचीनमस्ति भगिनि तर्हि सर्वं भगिन्या उक्तम् अधिकरणम् अत्र किमस्ति भगिनि सीमा भगिनि अधिकरणं
अधिकरणम् अस्ति भूतलं
तस्यैव अधिकरणस्य अपरसंज्ञा का
अधिकरणस्य अपरसंज्ञा
शीर्षकम्
अत्र अधिकरण अनुयोगी
अधिकरणम् अनुयोगी रघुपतिमहोदय अनुयोगी इति तर्हि अनुयोगिनी किमस्ति
अनुयोगिनी भूतले अस्ति
अनुयोगिनी इति सप्तमी विभक्ति खलु अनुयोगिनी भूतले किं किम् अस्ति
भूतले अनुयोगिनी अस्ति अधिकरणता
भगिनि 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 भूतलम् अनुयोगी भूतले किमस्ति
अनुयोगिता
भूतले अस्ति तमेव प्रश्नम् अहम् अपररीत्या पृष्टवती अनुयोगिनी किमस्ति इति अनुयोगी इत्यस्य सप्तमी
विभक्त्यन्तरैट् अनुयोगी मध्ये किमस्ति अनुयोगी मध्ये घटः अस्ति
घटः अस्ति इति सत्यम् अधिकरणम् इति सत्यं परन्तु धर्मः कः तत्र
अनुयोगिता अस्तु अनुयोगिनी अनुयोगिता अस्ति
इत्येव वार्ता अनुयोगिनी अनुयोगिता अस्ति इति वक्तव्यम् अस्तु अत्र अस्तु सामान्यतया अभावस्थले अनुयोगी इत्युक्ते कः
अनुयोगी अभावः एव अस्ति
अभावः एव खलु घटाभावः इति चेत् घटः प्रतियोगी घटाभावः अनुयोगी परन्तु अत्र किञ्चित् भिन्नरीत्या विवरणं कृतम् अनुयोगी इत्युक्ते अधिकरणं तर्हि अधिकरणे यथा अधिकरणता अस्ति तद्वत् अनुयोगिता अपि अस्ति इति
महोदय अत्र अनियोगिता अधिकरण अनियोगी अधिकरणम् अस्ति तदेव आधेयता अपि प्रतियोगिता एव भवति वा
हा तत् प्रश्नः समीचीनः महोदय तथा नास्ति अत्र केवलम् अनुयोगिता इत्यस्य भिन्नरीत्या नामकरणं कृतं प्रतियोगिता इत्यस्य न प्रतियोगिता इत्युक्ते सा एव प्रतियोगिता या अभावस्थले अस्ति खलु प्रतियोगिता इत्युक्ते किम् अभावस्थले महोदय
प्रतियोगिताविरोधः अभावस्य प्रति
प्रतियोगिता इत्युक्ते विरोधः खलु
विरोधः
हा प्रतियोगिता इत्युक्ते सा एव संज्ञा सः एव अर्थः परन्तु अनुयोगिता इत्यस्य भिन्नरीत्या संज्ञाकरणम् अथवा नामकरणं कृतम् अनुयोगिता इत्युक्ते अधिकरणता इति चिन्तयतु अत्र बुद्धं वा
बुद्धं
अभावस्थले अनुयोगिता इत्युक्ते विरोधः प्रतियोगितां प्रति यः विरोधः परन्तु अत्र अनुयोगिता इत्युक्ते अधिकरणता इति एव चिन्त्यम् अस्तु
कः लाभः अधिकरणतायाः नाम?
महोदय एकनिमिषः, सर्वे वदन्तः सन्ति यद् कनेक्षन् भग्नं जातम् इति.
अद्य एव अहं पुनः
आगतवान्.
सरला भगिनी, जगन्नाथ महोदय सर्वे अपि भग्नं कृतवन्तः.
ओ अस्तु इति उक्तवन्तः.
आं भगिनी, पुनः पुनः भग्नं भवति कनेक्षन्.
न जाने भगिनी किमर्थमिति.
भिन्नदूरवाण्याम् आगतवान्. फ्री कान्फरेन्स् काल् द्वारा घोषणा अभवत् आडियो इश्यूस् भवति इति. वारं वारं कान्फरेन्स् रेकार्डिङ्ग् स्टाप्, कान्फरेन्स् रेकार्डिङ्ग् स्टार्टेड् इति अपि आगच्छति.
ओ न न न, हा अस्तु, कान्फरेन्स् रेकार्डिङ्ग् प्रचलदस्ति, पश्याम. अस्तु, किं किं भवति?
मम तु बहु बहु सम्यक् अस्ति भगिनि.
केचन
केषुचित् स्थलेषु तादृशं भवति, किन्तु अत्र फ्लोरिडा मध्ये बहु दीर्घकालात् पर्यन्तं दीर्घकालं
वयं प्रयत्नं कुर्मः.
प्रायः कस्टमर् केर् प्रति पुनः किञ्चित् वार्तालापः करणीयः, तेषां प्रति सम्पर्क ईमेल् प्रेषणीयमिति. अस्तु,
कोऽपि कोऽपि प्रश्नः अस्ति?
अस्तु, आम्, श्रीधरमहोदयस्य प्रश्नः. महोदय,
अधिकरणतायाः नामकरणम् अनियोगी इति कृतवतः कन्फ्यूशन् करोति, अस्य लाभः कः?
लाभः कः इति, आम्, प्रश्नः आगच्छति एव. अस्तु, अत्र लाभः कः इति चेत्, अत्यन्ताभावस्थले अपि च अन्योन्याभावस्थले व्यवहारः अथवा ज्ञानजनकशब्दप्रयोगः कथं भवति इति प्रदर्शयितुं नूतनतया संज्ञाकरणं कृतम्.
अग्रे अस्ति न?
अग्रे अस्ति, आगच्छति. अस्तु, ये न वदन्ति कृपया म्यूट् कुर्वन्तु. प्रथमतया लैन् मध्ये एव कोऽपि क्लेशः अस्ति अद्य इति कृत्वा. अस्तु, हा, श्रीधरमहोदय, तस्य लाभः एवमेव अस्ति इति प्रथमतया. अपि च वस्तुतः मया पृष्टमपि, अपरः शिक्षकः उक्तवान् यद् प्रतियोगिता अनुयोगिता इति, अनुयोगिता इत्यस्य अधिकरणम् इति अधिकरणतायां विद्यमानः धर्मः, अपि च प्रतियोगिता अपि भिन्नरीत्या वक्तुं शक्यते, यत्र परम्परासम्बन्धः इति एकः सम्बन्धः आगच्छति अग्रे गत्वा. तत्र प्रतियोगिता इत्यस्यापि भिन्नरीत्या प्रतिपादनं कर्तुं शक्यते, परन्तु अत्र मनसि भवेत् यत् प्रतियोगिता इत्युक्ते अभावनिष्ठविरोधरूपा एव, अनुयोगिता इत्युक्ते अधिकरणता इति मनसि भवेत् अत्र. अस्तु, 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 तर्हि अग्रे गच्छेम. विजया भगिनी अग्रे पठति वा?
भगिनी, अत्र अनियोगिता, अनियोगिता न अभावनिष्ठविरोधरूपा इति वदति न? इयम् इयं च अनियोगिता न अभावनिष्ठ.
सत्यम्.
अस्तु, तत् तत्तु अभावनिष्ठनिरोध विरोधनिरूप विरोधरूप तु अधिकरणनिष्ठ.
अभावस्थले अनुयोगिता इत्युक्ते विरोधः, अत्र अनुयोगिता इत्युक्ते विरोधः नास्ति इत्येव वाक्यस्य अर्थः. अनुयोगिता न अभावनिष्ठविरोधरूपा इति वाक्यस्य अर्थः. अस्तु, विद्या भगिनी कृपया.
एताञ्च अधिकरणता रूपाम् अनियोगिताम् आदाय वेदात् अन्यताभावयोः वैलक्षण्यं सम्प्रदाये युद्धं वर्णयन्ति. अत्यन्त अभावस्थले बोधनाय प्रतियोगी वाचकपदस्य प्रथमा अनियोगी वाचकपदस्य च सप्तमी भवति. यथा भूतले गतो नास्ति इति अत्यन्त अभावबोधकः प्रयोगः, अत्र च घट अभावः भूतले अस्ति, अभावप्रतियोगिता घटे. तत् वाचकपद उत्तरं प्रथमविभक्तिः भवति. अभाव अनियोगीनि अनियोगी भूतलम्. अतः तत् वाचकपद उत्तरं सप्तमीविभक्तिः भवति. एवमेव वायौ रूपं नास्ति. रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगी वाचकपदस्य प्रथम अनुयोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया. भगिनि श्रूयते वा?
आमां भगिनि, वदतु कृपया आरम्भतः.
अत्र अधिकरणता रूपाम् अनियोगिम् आदाय. अधिकरणता इति तत्र रूपमस्ति. तत् अनियोगिताम् आदाय भेदः तत्र भेदः इत्युक्ते तत्र भावयोः अभावयोः वैलक्षण्यं सम्प्रदाये.
विजया भगिनी, भेदः इत्युक्ते किम्? अत्र वयं किम् अधीतवन्तः? भेदः इत्युक्ते अन्योन्याभावः खलु? भेद अत्यन्ताभावयोः वैलक्षण्यम् इत्युक्ते भेदः इत्युक्ते अत्यन्ताभावः अपि च क्षम्यतां, भेदः इत्युक्ते अन्योन्याभावः अपि च अत्यन्ताभावः. तयोः वैलक्षण्यं भिन्नतां प्रदर्शयितुम् अधिकरणतायाः अनुयोगिता इति संज्ञा कृता. तदर्थमेव उक्तम् अत्र अधिकरणतारूपाम् अनियोगिताम् आदाय भेद अत्यन्ताभावयोः वैलक्षण्यम् अत्र प्रदर्श्यते इति. बुद्धं वा? अस्तु,
विशेषेण तत्र वर्णयन्ति. अन्य अत्यन्त अभावस्थले बोधनाय प्रतियोगी वाचकपदस्य प्रथम प्रतियोगी तत्र घटः इति प्रथमविभक्ति इति रूपेण आगच्छति. अनियोगी वाचकपदस्य च सप्तमी भवति. अनियोगी तत्र सप्तमी विभक्ति इति रूपेण आगच्छति. भूतले घटो नास्ति इति घटस्य अभावः अत्र अस्ति. अत्यन्त अभावः बोधकः प्रयोगः. अत्यन्त अन्योन्य अभावः तत्र प्रयोगः.
भगिनि एकनिमिषः, भूतले घटो नास्ति, भूतले घटः नास्ति इति, तत्र अनुयोगी किम्? अनुयोगी कः? प्रतियोगी कः? कृपया वदति वा?
भूतले भूतले घटः नास्ति इति इत्युक्ते तत्र घटः प्रतियोगिता.
घटः घटः प्रतियोगी, प्रतियोगी घटः तावदेव. प्रतियोगिता घटे, किन्तु घटः प्रतियोगी. अपि च भूतलं किम् अत्र?
भूतले अनुयोगी अस्ति अत्र.
भूतलम् अनुयोगी प्रथमाविभक्त्यां वदतु. भूतलम्
अनुयोगी.
अपि च अयं
भूतलं तत्र नपुंसकलिङ्गम्, अतः प्रथमविभक्ति.
अतः प्रथमविभक्ति भगिनी शृणोतु. अधिकरणम् अथवा अनुयोगी किम् अत्र? भूतलम्. अस्तु, भूतले अनुयोगिता, घटः प्रतियोगी, घटे प्रतियोगिता इति वार्ता प्रथमतया. अस्तु, अपि च भूतले घटो नास्ति इति कीदृशः अभावः? अग्रे पठतु. भूतले घटो नास्ति इति अत्यन्ताभावः बोधकप्रयोगः. अस्तु, अग्रे पठतु.
अत्र च घट अभावः भूतले अस्ति इत्युक्ते तत्र घटः नास्ति इति, घटः नास्ति भूतले इति तत्र अस्ति. अभावः प्रतियोगिता घटे, घटे इत्युक्ते तत्र सप्तमी विभक्ति, तत्र अभावः प्रतियोगिता इति रूपेण आगच्छति.
अभावस्य प्रतियोगिता अस्ति, अभावः प्रतियोगिता न, अभावप्रतियोगिता घटे अस्ति. अस्तु, अग्रे.
तत् वाचकपद उत्तरं प्रथमाविभक्तिः भवति.
तस्य अर्थः कः?
घटः अभावः.
अधुना भगिनि, भूतले घटः नास्ति, भूतले घटः नास्ति इत्यस्मिन् वाक्ये भूतले इति का विभक्ति?
भूतले सप्तमी विभक्ति एकवचनं.
घटः का विभक्तिः?
घटः प्रथमविभक्ति एकवचनं.
इत्येव वार्ता अत्र. घटः प्रतियोगी खलु, प्रतियोगिता घटे अस्ति, तर्हि घटाभावः भूतले अस्ति अथवा घटः भूतले नास्ति इति अत्यन्ताभावस्थले प्रथमा विभक्ति कस्य भवति?
भूतलं घटः इति प्रथमा विभक्ति.
भगिनि अधुनैव उक्तवती भूतले घटः नास्ति इत्यत्र प्रथमा विभक्ति कस्य? घटस्य खलु. भूतले घटः नास्ति, तर्हि घटः प्रतियोगी, तस्मात् प्रथमा विभक्ति इत्येव तद्वाचकपदोत्तरं प्रथमा विभक्ति भवति. इत्युक्ते प्रतियोगीवाचकपदोत्तरं प्रथमा विभक्ति. अस्तु अग्रे.
अभाव अनियोगी भूतलं, तत्र सप्तमी अनियोगी भूतले अस्ति इति सप्तमी विभक्ति एकवचनं.
अग्रे पठतु.
अतः तत् वाचकपद उत्तरं सप्तमी विभक्तिः भवति अनियोगी भूतले इति.
अनुयोगी भूतलं, तर्हि अनुयोगिता, अनुयोगिता भूतले. अपि च अत्र अनुयोगी इत्यस्य अर्थः कः?
अद्यन्ताभावः.
अनुयोगी इत्यस्य अर्थः अधुनैव पठितवन्तः, अधिकरणं खलु. भूतलं, भूतलम् अधिकरणम् इत्य अभावानुयोगी भूतलम् इत्युक्ते अत्र अस्मिन् सन्दर्भे अभावस्य अधिकरणमस्ति भूतलं, यतोहि घटाभावः भूतले नास्ति इति वदामः. तर्हि अनुयोगीवाचकपदोत्तरं सप्तमी विभक्तिः भवति. बुद्धं वा? अस्तु.
एवमेव वायो रूपं नास्ति. वायो इत्युक्ते तत्र वायुः रूपं नास्ति, रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगी वाचकपदस्य प्रथमा अनियोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया. इत्युक्ते तत्र अधिकरणं वायुः प्रतियोगी अस्ति तत्र रूपं.
वायुः नितरां, भगिनि रूपं, एकनिमिषं शृणोतु भगिनि, रूपं कुत्र नास्ति?
वायौ नास्ति.
हा, वायौ नास्ति. वायौ इत्यस्य का विभक्तिः?
सप्तमी विभक्ति एकवचनं.
हा, वायौ इति सप्तमी. तत्र वायुः किम् अस्ति तत्र?
वायुः प्रथमविभक्ति एकवचनं.
वायुः अधिकरणमस्ति वा, अनुयोगी अस्ति वा, प्रतियोगी अस्ति वा?
वायुः अधिकरणमस्ति.
अधिकरणमस्ति
इतोपि प्रतियोगिता अपि, प्रतियोगी अपि अस्ति.
भवती न अवगतवती. वायुः अधिकरणमस्ति इत्युक्ते वायुः अनुयोगी अस्ति अत्र. अत्रैव दृष्टवन्तः खलु अधिकरणस्य अनुयोगी इति संज्ञा. वायुः वायुः अनुयोगी अस्ति अधिकरणम् इति. रूपं किमस्ति?
रूपं वायो नास्ति.
रूपम् अत्र प्रतियोगी अस्ति वा, अनुयोगी अस्ति वा, किमस्ति? प्रतियोगी अस्ति. रूपाभावस्य प्रतियोगी अस्ति रूपं, तर्हि रूपं प्रतियोगी इत्येव उक्तं. पुनः प्रतियोगी वाचकपदस्य प्रथमा विभक्ति इत्युक्ते रूपम् इत्यस्य प्रथमा विभक्ति, वायुः इत्यस्य का विभक्ति? सप्तमी विभक्ति. एवमेव रूपे विशेषः नास्ति इत्यत्र रूपम् इति किमस्ति?
प्रतियोगी.
रूपे अनुयोगी अस्ति खलु भगिनि. रूपम् इति अधिकरणम्, अधिकरणस्य अनुयोगी इति संज्ञा. रूपम् अनुयोगी, तस्य सप्तमी विभक्ति. विशेषः प्रतियोगी. विशेष इत्युक्ते रूपे विशेषः नास्ति इत्युक्ते रूपे विशेषाभावः अस्ति इति. विशेषस्य प्रथमा विभक्ति.
विशेषतः तत्र अद्यन्तभावः खलु, तत्र रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा इत्युक्ते तत्र किम्
इत्येव मया अधुना उक्तं. विशेषः प्रतियोगी अस्ति, विशेषः रूपे विशेषः नास्ति इत्युक्ते अत्यन्ताभावस्य अत्यन्ताभावस्य निरूपणं खलु, अत्यन्ताभावस्य वाक्यं. विशेषस्य प्रथमा विभक्ति रूपम् इत्यस्य सप्तमी, अनुयोगिवाचकपदस्य सप्तमी विभक्ति. बुद्धं वा? हा, तर्हि मनसि भवेत् यत् अनुयोगी इत्युक्ते अधिकरणम् इति, न तु अभावनिष्ठविरोधरूप. बुद्धं वा?
अस्तु भगिनि,
अस्तु, समीचीनं, सम्यक्. इति अत्यन्ताभावस्थले विभक्तिप्रयोगः कथं भवति इति, अधुना अन्योन्याभावस्थले कथं भवति इति पश्येम. रघुपतिमहोदय अग्रे पठति वा?
हा हा महोदय, भेदस्थले तु प्रतियोगि अनियोगिवाचकपदाभ्यां प्रथमा विभक्तिः भवति. यथा घटः घटः पटः न इति, यदि घटभेदः पटे अस्ति इति वक्तुम् इच्छति तदा पटः अनियोगी घटः प्रतियोगी, इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव. एवम् इह विपरीतमपि सम्भवति. पटभेदः घटनिष्ठ बोधयितुम् इष्टश्चेदपि इदं वाक्यं भवति. तर्हि अनियोगिता घटनिष्ठ अनियोगिता प्रतियोगितायोः आश्रयभेदपि विभक्तौ भेदः नैव भवति भेदस्थले विशेषः. भेद इत्युक्ते अन्योन्यभावः. भेदस्थले तु प्रतियोगी अनियोगी वाचकपदाभ्यां प्रथमा विभक्तिः भवति. यदा भेदस्थले वयं पूर्वं दृष्टवन्तः सप्तमीविभक्ति प्रथमविभक्ति अत्यन्तभावस्थले. यदा भेदस्थले तत्र नास्ति, तत्र केवलं प्रथमविभक्तिः भवति. यथा घटः पटः न इति, घटः पटे नास्ति इति न वक्तव्यं, घटः पटः न इति. समीचीनं वा भगिनि?
हा, घटः पटः न इति सादृशव्यवहारः अन्योन्यभावस्य महोदय.
घटः पटे नास्ति इति वक्तुं शक्नुमः
अथवा अग्रे पठतु इति वक्तुं शक्यते.
ओके,
इत्युक्ते इतोपि विशिष्टतया वक्तुमिच्छति चेत् घटः तादात्म्यसम्बन्धेन पटे नास्ति इति वक्तव्यम् इति भेदः खलु.
यदा तादात्म्यसम्बन्धः भवति तदा घटः पटः न इति एव वक्तव्यम् इति.
घटः सत्यं, घटः पटः न इति भेदः अथवा अन्योन्यभावप्रयोगः. अधुना केवलं घटः पटे नास्ति इति वदति चेत् यः कोऽपि पटस्य उपरि घटं स्थापयति इति चिन्तयतु, तद् तत्र घटः पटे नास्ति इति न वक्तुं शक्यते, यतोहि घटः पटे नास्ति इति अत्यन्ताभावप्रयोगः, अत्यन्ताभावस्य व्यवहारः. अत्र न्यायशास्त्रे अन्योन्यभावस्य व्यवहारः अथवा ज्ञानजनकशब्दप्रयोगः कथं भवति इति चेत् घटः पटो न अथवा पटः घटो न, पुस्तकं लेखनी न तथा. अत्र किं जातम् अग्रे पठतु. यदि
घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा घटभेदः पटे अस्ति इति तदा पटः अनियोगी घटः प्रतियोगी.
अतः कः
अत्र घटः पटे नास्ति इति इत्युक्ते पटे पटः अनियोगी भवति.
अनुयोगी किमर्थं भवति पटः?
अनियोगी इत्युक्ते तादात्म्यसम्बन्धेन न.
अधुना सीमा भगिनी उक्तवती. रघुपति महोदय अवगतं वा? अनुयोगी इत्यस्य संज्ञा कृता खलु. अधिकरणं पटः अधिकरणं. पटः कस्य अधिकरणम्?
पटः
वाक्यं पठतु. यदि घटभेदः पटे अस्ति तत्र पटे किमस्ति?
यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा घटभेदः पटे अस्ति. पटे अस्ति तदा पटः अनियोगी.
पटः अनियोगी महोदय, पटः अनुयोगी किमर्थं वदामः? पटः अधिकरणं तदर्थम् अनुयोगी इति वदामः खलु. अधुना पटः कस्य अधिकरणम् इति चिन्तनं करोतु. अत्रैव दत्तं
पटः पटः
पटे पटे किम् अस्ति अत्र?
पटे घटाभावः.
घटभेदः पटे अस्ति.
घटभेदः अस्ति
इत्युक्ते घटस्य न्यून्यभावः पटे अस्ति इति उक्तं. तदर्थं पटः अधिकरणम्, अभावस्य अधिकरणम् अथवा अनुयोगी. अस्तु, अपि च अग्रे.
अग्रे घटः प्रतियोगी. इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव. इयमपि पटनिष्ठ अनियोगिता पठनिष्ठ अनियोगित अधिकरणता एव. किञ्चित् क्लेशः भवति
महोदय, प्रयत्नं करोतु. पटः अनुयोगी खलु?
पटः अनियोगी. हा,
किमर्थं पटः अनुयोगी? यतोहि पटः अधिकरणं.
पटः अधिकरणं.
अधिकरणं पटः. कस्य अधिकरणं पटः? महोदय वदिष्यति, सर्वे कृपया शृण्वन्तु. घटभेदः अथवा घटस्य अन्योन्यभावस्य इति पटः अनुयोगी. पटः अनुयोगी इति चेत् तस्मिन् कः धर्मः वर्तते?
अनियोगिता.
तदेव उक्तम् अस्मिन् वाक्ये. इयमपि पटनिष्ठ अनुयोगिता अधिकरणता एव. अधुना बुद्धं वा?
बुद्धं. पटनिष्ठ अनुयोगिता अधिकरणता एव.
पटः अधिकरणं, पटे अधिकरणता अस्ति. पटनिष्ठ अधिकरणता इत्युक्ते पटनिष्ठ अनुयोगिता, तावदेव अस्ति. अन्यत् किमपि? अवगतम्?
अवगतं किञ्चित्.
अस्तु, अग्रे गच्छतु.
एवम् इह विपरीतमपि सम्भवति. पटभेदः घटनिष्ठः बोधयितुम् इष्टः चेत् अपि इदं वाक्यं भवति.
अत्र भगिनि पटः अनियोगी इति वदति. अनियोगी तु स्त्रीलिङ्ग न
पुल्लिङ्ग भगिनि.
पुल्लिङ्ग. अनियोगी अपि पुल्लिङ्ग. अस्तु,
सत्यम्. अस्तु महोदय, अग्रे.
पटभेदः घटनिष्ठ बोधयितुम् इष्टः चेत् अपि इदं वाक्यं भवति. किञ्चित्
अस्तु, कः साहाय्यं करोति? बालसुब्रह्मण्यं महोदय साहाय्यं करोति वा अत्र? बालसुब्रह्मण्यं महोदय अस्ति?
क्षम्यतां महोदय. एवमिह विपरीतमपि सम्भवति.
पटभेदः घटनिष्ठः भूतयुतिमिष्टः चेदपि इदं वाक्यं भवति. एवमेव पटभेदः घटनिष्ठः इति वक्तुमिच्छति चेत्
महोदय अधुना वक्तव्यमस्ति घटभेदः पटे अस्ति इत्यत्र पटः अनुयोगी घटः प्रतियोगी खलु.
आम्
हा पटभेदः घटनिष्ठः इत्यस्य अर्थः कः?
पटभेदः घटनिष्ठः सो पटं विहाय पट
तत्सर्वं मा चिन्तयतु अत्रैव पटभेदः घटनिष्ठः इत्यस्य अर्थः कः?
पटभेदः घटनिष्ठः पट अभावः घटे अस्ति.
हा तावदेव पटस्य भेदः इत्युक्ते अन्योन्याभावः पटस्य अन्योन्याभावः घटे अस्ति इति तस्य अर्थः. अधुना वदतु पटभेदः घटनिष्ठः इत्यत्र अनुयोगी कः?
पटभेदः घटनिष्ठः अत्र घट अनुयोगी.
बहु समीचीनं महोदय. किमर्थं घटः अनुयोगी?
पटभेदः घट एव अधिकरणं
सम्यक्
अस्ति इति कारणात्.
हा समीचीनम्. अपि च पटः कः तत्र?
पटः तत्र प्रतियोगी.
प्रतियोगी यथा सामान्यतया वदामः पटभेदः
वदामः. आम्
पटभेदः इत्युक्ते पटस्य अन्योन्याभावः अन्योन्याभावस्य प्रतियोगी पटः.
पटः
समीचीनम्. अस्तु इदानीं प्रतिपादयतु वाक्यं पटभेदः.
पटभेदः घटनिष्ठः बोधयितुम् इष्टः चेत् अपि इदं वाक्यं भवति. सो इदं पूर्वं वाक्यम् एवमिह इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव इदं वाक्यं पटभेदः घटनिष्ठः वक्तुमिच्छति चेत् तस्य वाक्यं साधु भवति.
हा तद्वाक्यं कथं भवति अत्र कथम् अन्वयः भवति तस्य वाक्यस्य? अनुयोगिता कुत्र अस्ति?
अनुयोगिता
समीचीनं घटनिष्ठ अनुयोगिता इति आगच्छति. प्रतियोगिता कुत्र अस्ति?
पटः
पटे इति सप्तमी
पटे प्रतियोगिता पटे अस्ति. आम्
हा वस्तुतः अत्र वार्ता का इति चेत् पटभेदः घटनिष्ठः बोधयितुम् इष्टश्चेत् इदं वाक्यं भवति. इदं वाक्यम् इति किं वाक्यम् इति चिन्तयतु. द्वितीयपङ्क्त्यां पश्यतु घटः पटो न. घटः पटो न इति घटभेदस्य वाक्यं खलु. अत्र वाक्यं कथं भवति?
घटः पटो न इति वाक्यम्. आम् अत्र घट पटभेदः पट अभावः
घटे
नास्ति.
हा इति सत्यमेव पटभेदः घटे अस्ति. अस्तु रघुपतिमहोदय वदतु.
पटः घटः नास्ति.
समीचीनम्. केवलं विपरीततया वदतु तावदेव. घटः पटो न इत्युक्ते घटभेदः पटे अस्ति इति वार्ता. पटः घटः न इत्युक्ते पटभेदः घटे अस्ति इति वार्ता. अस्तु महोदय. बालसुब्रह्मण्य अग्रे गच्छतु तर्हि.
तर्हि अनियोगिता घटनिष्ठा. अनियोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः नैव भवति इति वेदस्थले विशेषः. सो अनुयोगिता प्रतियोगितयोः एतयोः मध्ये आश्रयभेदः अपि भिन्नः.
तत्र किञ्चित् वक्तव्यं भवता. आश्रयभेदः इत्युक्ते किं? तत्र अनुयोगिता कुत्र अस्ति प्रतियोगिता कुत्र अस्ति?
सो अनुयोगिता तस्य आश्रयः अनियोगिता प्रतियोगितयोः आश्रयः अनियोगिता
न महोदय, प्रतियोगी कः अत्र? पटः खलु,
पटः
प्रतियोगिता कुत्र अस्ति?
प्रतियोगिता प्रतियोगी
पटे अस्ति,
पटे
अस्ति, हा। अनुयोगिता कुत्र अस्ति?
घटे अस्ति।
प्रतियोगिता अनुयोगितयोः आश्रयः समानः वा?
समानं नास्ति।
हा, इत्येव वार्ता, अनुयोगितप्रतियोगितयोः आश्रयभेदे अपि, इत्युक्ते यद्यपि आश्रयः भेदः अस्ति तथापि किम्? एकनिमिषः विजया भगिनी, अग्रे पठतु बालसुब्रह्मण्यं महोदय, विभक्तौ
आश्रयभेदे अपि विभक्तौ भेदः न एव भवति, भेदस्थले विशेषः।
अस्तु, घटः रघुपतिमहोदय प्रयत्नं करोति वा वक्तुम्?
अनियोगिता प्रतियोगिता आश्रयभेद अस्ति चेदपि विभक्ति प्रथमविभक्ति एव भवति इति, अत्र यदा यत्र अन्योन्य अभावः अस्ति तत्र प्रथमविभक्ति एव भवति, घटपटः न इति।
भेदस्थले तु प्रतियोग्य अनुयोगिता वाचकपद पदाभ्यां प्रथमाविभक्तिः भवति।
हा, समीचीनं, एकनिमिष एकनिमिष, रघुपतिमहोदय वदन् अस्ति, शृणोतु। सः उक्तवान् एव, सम्यगेव महोदय, भेदस्थले इत्युक्ते अन्योन्याभावस्थले,
अन्योन्यभावस्थले
घटः
अन्योन्यभाव घटः पटः प्रथमविभक्ति, विभक्तिभेदः न दृश्यते, विभक्तिभेदः न भवति।
समीचीनम् इति बालसुब्रह्मण्यमहोदय बुद्धं वा? घटः पटो न, प्रतियोगी अस्ति अनियोगी अस्ति, उभाभ्यां प्रथमा विभक्ति। अत्यन्त अभावस्थले का वार्ता?
अत्यन्त अभावस्थले प्रथमा अपि सप्तमी विभक्ति, भूतले घटः नास्ति।
हा, भूतलं किं तत्र?
भूतलम् अनियोगी।
तर्हि अनुयोगीवाचकपदस्य सप्तमी अपि च
सप्तमी, प्रतियोगी प्रथमा,
प्रतियोगिवाचकस्य प्रथमा, अस्तु,
घट।
केवलम् एतद् एतस्य वदनार्थम् अधिकरणस्य अनुयोगी इति संज्ञा कृता इति मनसि भवेत्। अस्तु, अनेन अभावस्य विषयः समाप्तः। अस्तु, कृपया मम प्रार्थना अस्ति यत् पुनः पठन्तु गृहे इति कृत्वा, विषयः जटिलः न, वारं वारं पठति चेत् मनसि स्थास्यति इति।
पठितवान् तथापि कन्फ्यूजन् भवति।
अभावस्य भगिनी, अभावस्य विषयः इतोपि अभावः एव।
अस्तु, भावः अभावस्य विषयः भावः भवतु इति मम आशा। अस्तु, पुनः पठन्तु। अस्तु अस्तु, पुष्पा भगिनी अग्रे कृपया, अधुना नूतनविषयः ज्ञानं तद्विषयता च इति।
अस्तु भगिनि, एकनिमिषः। ज्ञानं विषयता च, शब्दं नास्ति न? नास्ति,
नास्ति, वदतु।
विवरणसौकर्याय विषयता, विषयिता च इति द्वौ सम्बन्धौ निरूप्येते। तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते। अयं च सर्वव्यवहाराणां कारणम् इति च उच्यते। कथं येन कदाचित् अपि गौः केनापि प्रमाणेन न ज्ञाता न सः गामानय इत्यादि व्यवहारसमय समर्थः वक्तुं समर्थः।
अस्तु,
एवं सर्वत्र विवरणसौकर्याय विषयता, विषयिता च इति द्वौ सम्बन्धौ निरूप्येते। अस्तु, विवरण विवरणसौकर्याय तत्तु सौकर्य इति वदनेन किं वदामः विकरणसौकर्यार्थं विषयता तु विषयिता च दे अपि सम्बन्धौ तत्र विषयता विषयिता सम्बन्धः अस्ति इति
हा तर्हि नूतन द्वौ सम्बन्धौ
नूतन तौकौ इति विवरणं कृतं
प्रश्नः अस्ति भगिनि
द्वौ
सम्बन्धौ कौ अत्र
द्वौ सम्बन्धौ निरूप्यते
अस्तु सम्बन्धद्वयं किम् अत्र
विषयता विषयिता
इति एव अस्तु प्रश्नः
तत् आगच्छति इति मम मनसि तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते आम् तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते अत्र विषयता विषयिता गुणविभागे बुद्धि सम्यक् अस्ति चेत् ज्ञानम् इति
भगिनि एकनिमिषः नितरां नास्ति तथा सम्बन्धद्वयम् अस्ति विषयता विषयिता इति सम्बन्धद्वयम् अस्तु अधुना द्वितीयवाक्ये गुणविभागः विषयता इति गुणः अस्ति वा
गुणः नास्ति विषयिता गुणः अस्ति
उभौ अपि गुणौ नास्तः अत्र उक्तं गुणविभागे बुद्धिः अथवा ज्ञानम् इति गुणद्वयं
ज्ञानम् अस्ति बुद्धिः ज्ञानं
बुद्धिः इत्युक्ते बुद्धिः इत्युक्ते ज्ञानम् इति गुणः गुणद्वयं न एकः एव गुणः बुद्धिः इत्युक्ते ज्ञानम् इति गुणस्य उल्लेखः यदा भवति अग्रे तदा उच्यते
अयं च सर्वव्यवहाराणां कारणम् इति च उच्यते सर्वे अपि व्यवहारं कुर्मः चेत् तस्य कारणम् इति तत्तु ज्ञानं बुद्धिः च ज्ञानं बुद्ध्यौ ज्ञानौ
एकनिमिषः भगिनि बुद्धिः इत्युक्ते ज्ञानम् अस्तु ज्ञानमेव सर्वेषां
एकवचन तमेव कारणम् इति ज्ञानम् इति उच्यते
ज्ञानमेव
ज्ञानमेव कारणम् इति उच्यते कथम् एतद् इति प्रश्नः उदेति तत्तु येन कदाचित् अपि गौः केनापि प्रमाणेन न ज्ञाता न सः गाम् आनय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः कोऽपि न जानाति गौ इति एतद् गौ इति न जानाति तत्तु गाम् आनय न वक्तुं न शक्यते
समीचीनं भगिनि इत्युक्ते कस्यचित् ज्ञानमेव नास्ति चेत् इत्युक्ते गौः इति केनापि प्रमाणेन न ज्ञाता चेत् प्रमाणम् इत्युक्ते अत्र
ज्ञानस्य उपायः
वयं जानीमः प्रमाणम् अनुमानप्रमाणं प्रत्यक्षप्रमाणम् उपमानप्रमाणं शाब्दबोधः इति ज्ञानस्य मार्गचतुष्टयमस्ति खलु
एकवारं वदतु भगिनि एकवारं प्रमाणानां
प्रत्यक्षप्रमाणम् अनुमा अग्रे आगच्छति प्रत्यक्षम् अनुमानम् उपमानं शाब्दबोधः इति अस्तु भवत्या म्यूट् करणीयम् इति भाति बालसुब्रह्मण्य महोदयेन कृपया भगिनी अग्रे आगच्छति एकनिमिषः अग्रे आगच्छति अधुना चिन्ता मास्तु अस्तु अधुना द्वौ नूतनसम्बन्धौ इति मनसि भवेत् अपि च ज्ञानम् इति यत्र अस्ति तत्र भवति अग्रे पश्येम अपि च वार्ता का इति चेत् येन केनापि प्रमाणेन कोऽपि किमपि न जानाति चेत् तर्हि तस्य व्यवहारं कर्तुम् असमर्थः भवति इति वार्ता अस्तु गौः इति केनापि प्रमाणेन न जानाति चेत् गामानय इति व्यवहारं न कर्तुं शक्नोति इति वार्ता बुद्धं वा अस्तु मेहुल महोदय
इति चिन्तयामि
न महोदय बुद्धिः
बुद्धिम् उपयुज्य ज्ञानं प्राप्नोमि
न न न तथा नास्ति बुद्धिः इत्युक्ते ज्ञानम् एकः एव गुणः इति मनसि भवेत् न्यायशास्त्रे आगच्छति गुण इति एव उक्तः अत्र गुणः सङ्ग्रहे वक्ष्यते इत्युक्ते गुणविभागे अधुना वयं कुत्र स्मः उद्देशविभागे स्मः खलु पुनः तत्र अग्रे गत्वा गुणस्यापि विवरणं भवति तदा उच्यते बुद्धिः अथवा ज्ञानम् इत्युक्ते एकः एव गुणः न्यायशास्त्रे तथा बुद्धिः इत्युक्ते ज्ञानम् इति मनसि भवेत् अस्तु मेहुल महोदय प्रश्नः आसीत् वा महोदय
न न अहं पुनः आगतवान् भग्नः अभवत् कनेक्षन् इतः
अस्तु अग्रे पठतु महोदय भवानेव
अस्तु अतः अस्ति ज्ञानापेक्षा किञ्च यः कश्चित् घटं जानाति न सः तदा पटं मठं वा जानाति एवं यदा पटं जानाति न तदा घटं मठं वा एवम् अन्यत्रापि अन्यथा एकेन ज्ञानेन सर्वेपि पदार्थाः ज्ञाताः इति सः सर्वज्ञ एव स्यात् तावदेव भगिनि
तावदेव किम् अवगतमिति मुख्यः विषयः अस्ति वस्तुतः ज्ञानस्य विषयः तर्हि किञ्चित् प्रतिपादयतु
अत्र वयं दृष्टवन्तः बुद्धिम् इति ज्ञानः किञ्चिदपि व्यवहारसामर्थ्याय ज्ञानम् अपेक्षितः अस्ति अत्र एकम् उदाहरणं दत्तमस्ति किञ्चित् मनुष्यः घटम् इति जानाति परन्तु तत्तु पटम् अथवा मठम् इति किम् इति न जानाति एवं यदा सः पटम् इति जानाति तर्हि तत्र घटम् अथवा मठं किम् इति न जानाति एवम् अन्यत्र अपि
तस्य महोदय किञ्चित् चिन्तनं करोतु तत्र तस्य अर्थः कः
किञ्च यः कश्चित् घटं जानाति न सः तदा पटं मठं वा जानाति एतत् क्षणे सः घटम् इति जानाति घटस्य ज्ञानं भवति तस्मिन् क्षणे सः पटं वा मठम् इति पदार्थस्य ज्ञानं न जानाति एकस्मिन् क्षणे एकैव पदार्थस्य ज्ञानं भवति
समीचीनम् इत्येव वार्ता नाम यत् अस्तु अस्माकं पुरतः घटः अपि च पटः द्वौ अपि पदार्थौ स्तः इति चिन्तयतु तथापि एकस्य ज्ञानं प्रथमं जायते अपरस्य ज्ञानम् अनन्तरं जायते ज्ञानं क्षणिकम् एकस्मिन् क्षणे एकस्यैव ज्ञानं घटस्य ज्ञानं यदा भवति तदा पटस्य न मठस्य न इति
अन्यथा अत्र दत्तमस्ति एकैव पदार्थस्य ज्ञानेन सः सर्वज्ञ सर्वं जानाति इति स्यात् परन्तु तत्तु तत् परिस्थितिः नास्ति एकमेव पदार्थस्य ज्ञानं भवति अन्यत्र अपरस्मिन् पदार्थस्य ज्ञानं भवति
हा समीचीनम् इति वार्ता अस्ति नाम एकं ज्ञात्वा एकमेव पदार्थं ज्ञात्वा सर्वेषां पदार्थं ज्ञानं भवति इति न नो चेत् वयं सर्वे सर्वज्ञाः भवेम खलु
तर्हि
एकेन ज्ञानेन एकः एव पदार्थः ज्ञायते न तु सर्वे पदार्थाः एकं ज्ञानमस्ति इत्युक्ते तस्य ज्ञानस्य एकः एव विषयः इति वक्तुमिच्छति अत्र अग्रे विषयता विषयिता पठेम परन्तु मनसि भवेत् यत् एकस्य ज्ञानस्य एकः विषयः, अपि च विषयः बहवः स्युः, अस्तु पश्येम अग्रे, परन्तु तद् ज्ञानं क्षणिकं भवेत् इति.
मिलित्वा अस्ति चेत् घटः पटः मिलित्वा मिश्रण मिलित्वा अस्ति चेत् ज्ञानद्वयं भवति.
समीचीनं महोदय, तत्तु समीचीनं, परन्तु अयं घटः इति कोऽपि वदति चेत्, अस्तु पश्यतु पूर्वम् उक्तं व्यवहारसमर्थः भवितुं ज्ञानम् अपेक्षितम् इति खलु. कोऽपि अयं घटः इति वदति चेत् तस्य मनसि ज्ञानस्य विषयः एकः एव, घटः इति. भवान् यत् पृच्छति तादृशज्ञानमस्ति पटे घटः अस्ति इति खलु, मिश्रितम्. अस्तु समीचीनः प्रश्नः, तत् सः तस्य उत्तरम् अग्रे वक्ष्यते, किन्तु स्थूलरीत्या वदामि. तत्र ज्ञानस्य विषयत्रयं भवति, घटः अपि च घटे, क्षम्यतां, पटः पटे घटः अस्ति अपि च तयोः मध्ये कः सम्बन्धः इति. परन्तु अत्र वार्ता का इति चेत् पटे घटः अस्ति इति ज्ञानस्य सन्दर्भे पटे लेखनी अस्ति इति ज्ञानं न जायते इति मनसि भवेत्. सः एव अर्थः, ज्ञानं क्षणिकम् इत्यस्य सः एव अर्थः, एकस्मिन् क्षणे एकं ज्ञानम्. अयं पटः इति ज्ञानं चेत् तत्र अयं घटः इति ज्ञानं न भवति. पटे घटः अस्ति इति ज्ञानं चेत् पटे लेखनी अस्ति इति ज्ञानं न भवति. पृथक् पृथक्तया प्रत्येकस्मिन् क्षणे एकमेकं ज्ञानं भूत्वा ज्ञानानां समुच्चयः शक्यः, परन्तु एकस्मिन् क्षणे एकमेव ज्ञानम्. कृतं वा?
तत्र सः सर्वज्ञः एव स्यात् इति आगच्छति खलु तत्र.
आम्, तर्हि भगिनि प्रश्नः कः?
सः सर्वज्ञः एव स्यात् इत्युक्ते तत्र सः सर्वं जानाति इति आगच्छति खलु तत्र.
न न न, वाक्यं पठतु. अन्यथा एकेन ज्ञानेन सर्वेपि पदार्थः ज्ञातः इति, सः सर्वज्ञः स्यात्, तत्तु नास्ति. एकेन पदार्थेन सर्वे सर्वं जानाति इति आपतति, किन्तु तत् सत्यं नास्ति. किमर्थम् इति पूर्वम् उक्तम्, घटस्य ज्ञानं भवति चेत् केवलं घटस्य ज्ञानं, पटस्य ज्ञानं भवति चेत् इति वार्ता अस्ति. उदं वा?
अहं महाभारते श्रुतवान् अर्जुनः पक्षीमेव पक्ष्यति, पर्णः न पर्णं न पश्यति, वृक्षं न पश्यति, तथैव वा?
तथा न, एकरीत्या तद् समीचीनमेव, एकं ज्ञानमेव अस्ति अर्जुनस्य मनसि इति, तत् समीचीनम्. अस्माकं मनसि अपि महोदय, वस्तुतः यद्यपि अस्माकं पुरतः यद्यपि बहूनि वस्तूनि सन्ति, तथापि एकस्मिन् क्षणे एकस्य वस्तुनः एव ज्ञानम्.
दुर्योधनः
महोदय, तद् महोदय तत्र वा गच्छतु, न्यायशास्त्रे ज्ञानं क्षणिकं. पश्यतु, यद्यपि भवतः पुरतः बहूनि वस्तूनि सन्ति, अस्तु पुस्तकमस्ति, सङ्गणकमस्ति, बहु किमपि अस्ति इति चिन्तयतु, तथापि भवतः मनसि एकस्मिन् क्षणे एकस्य ज्ञानं भवति. शीघ्रं शीघ्रं भवति ज्ञानम्, अस्तु ज्ञानं शीघ्रं शीघ्रं भवति इति कृत्वा, अस्तु वयं चिन्तयितुं शक्नुमः, अस्तु सर्वेषां ज्ञानम् अस्ति अस्माकं मनसि इति, आत्मनि इति, परन्तु तथा नास्ति. वस्तुतः ज्ञानं क्षणिकमेव. एकवारम् उत्पीठिकायां पुस्तकम् अस्ति इति ज्ञानम्, अपरं वारम् उत्पीठिकायां सङ्गणकम् अस्ति इति ज्ञानं, तादृशं ज्ञानं भवति.
भगिनी किम् उक्तवती, श्रमिकं वा, किं शयः वा,
सङ्गणकं?
सङ्गणकं वा,
इत्युक्ते कम्प्यूटर् इति. मल्टिटास्किङ्ग् नास्ति इति वार्ता महोदय. मल्टि थ्रेडेड् प्रोग्राम् नास्ति अस्माकं मनसि, सिङ्गल् थ्रेड् एव प्रचलति इति ते वदन्ति.
इदानीं अहं भवतः वार्तां शृणोमि, पुस्तकमपि
नास्ति नास्ति, यद्यपि तथा भाति, तदेव उक्तवती, यद्यपि तथा भाति, तथापि एकमेकं ज्ञानं शीघ्रं शीघ्रम् आगच्छति, तदर्थं वयं तद् अभिज्ञातुं न शक्नुमः इति. शीघ्रं शीघ्रम् आगच्छति, भवान् मम ध्वनिं शृणोति, पुस्तकं पश्यति, तत् शीघ्रं शीघ्रं भवति मनसि इति कृत्वा ज्ञानं पृथक् पृथक् अस्ति इति अभिज्ञातुं न शक्नुमः.
अहं त्वं शृणोमि, तत्तु द्वे कोऽपि वक्तुं शक् कोऽपि कोऽपि वदति चेत् तत् न शृण्यं न शक्नुमः शक्नुमः एक एव शृणम्
एकमेव एकमेव ध्वनिं सत्यम् एकमेव ध्वनिं शृणुमः. यद्यपि बहून् ध्वनीन् शृणुमः तथापि वदामि अस्माकं मनसि तेषां सङ्ग्रहणं पृथक् पृथक्तया एव भवति, एकस्मिन् समये न भवति इति वार्ता. पृथक्तया एव ज्ञानस्य सङ्ग्रहणं भवति. अस्तु अस्तु महोदय.
दृष्टमपि तथैव गच्छति न?
तदेव उक्तवती अहं, दर्शनमपि यद्यपि बहूनि वस्तूनि पश्यामि तथापि पृथक् पृथक्तया एकस्य अनन्तरम् अपरं तथा ज्ञानं भवति. अस्तु.
एतत् विषये संस्कृतभारतीमध्ये शिबिरमध्ये एतद् आगच्छति, सर्ववस्तूनि टेबल् मध्ये स्थापयति, उत्पीठिकायां स्थापयति, किञ्चित् वदतु चेत् किञ्चिदपि वक्तुं शक्नुमः न पूर्वम्.
अस्तु अस्तु भगिनि भगिनि अस्तु अग्रे सरेमः. तर्हि ज्ञानं क्षणिकम् इति मनसि भवेत्, ज्ञानम् इत्युक्ते बुद्धिः इति अपि. अस्तु अग्रे अस्तु श्रीधर महोदय पठतु कृपया.
एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः न अन्यः इति व्यवस्थाय सिद्धये ज्ञानस्य एवं घटपाठादीनां कश्चित् सम्बन्धः कल्प्यः स एव च विषयाता सम्बन्धः. घटज्ञानकाले यद्यपि घटो वर्तते पटोऽपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सहैव वर्तते न पटेन सह इति. वदन्ति च जनाः तन्त्रमसं पश्यामि अहं न अरुन्धतिम्.
पुनः महोदय.
एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः न अन्य इति व्यवस्थास्थितये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः. अद्य
एकस्मिन्
क्षणे एकस्य ज्ञानम् एव भवति इति उक्तं. पदा यदा यस्य पदात् ज्ञानं तदा स एव पदात्. यदि वयम् एकं पदार्थं ज्ञानं प्राप्नोमि चेत् एकस्य ज्ञानम् एव भवति, ज्ञातः अन्यस्य ज्ञानं इति व्यवस्थास्थितये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्पय. अतः घटपटमध्ये कश्चित् सम्बन्धः
कयोः मध्ये सम्बन्धः कल्प्यः घटपटमध्ये इति न, ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः इति उक्तः. अत्र कयोः मध्ये सम्बन्धः कल्प्यः, ज्ञानस्य अपि च ज्ञानस्य विषयः यः कोऽपि भवति घटः पटः तयोः मध्ये सम्बन्धः कल्प्यः.
ज्ञानस्य एव घटपट विषये सम्बन्धः कल्पितुं शक्यते.
अयं घटः इति वदामश्चेत् अयं घटः इति ज्ञानस्य आकारः इति वदामः. आकारः इत्युक्ते शब्देन बोधः जायते खलु, शब्देन प्रतिपादितं स्वरूपम् इति आकारः. अयं घटः इति ज्ञानम् इति चेत् ज्ञानम् अपि च घटः तयोः मध्ये सम्बन्धः कल्प्यः. अयं पटः इति चेत् ज्ञानम् अपि च पटः तयोः मध्ये सम्बन्धः कल्प्यः. किमर्थं सम्बन्धः कल्प्यः इत्युक्ते व्यवस्थासिद्धये, कीदृशव्यवस्थासिद्धये? एकस्मिन् क्षणे एकस्य पदार्थस्य ज्ञानं भवति इति कृत्वा ज्ञानं च पदार्थः सम्बद्धौ भवतः, तयोः मध्ये सम्बन्धः कल्प्यः इति. बुद्धं वा महोदय?
बुद्धं बुद्धम्.
अग्रे
घटं घटस्य ज्ञाने सम्बन्धः अस्ति, तथैव सम्बन्धस्य नाम विषयता सम्बन्धः इति. घटज्ञानकरे घटज्ञानकाले यद्यपि घटः वर्तते, पट अपि अस्ति, तस्मिन् समये ज्ञानस्य ज्ञानं घटे घटे एव अस्ति, पटे नास्ति. विषयता सम्बन्धः घटेन सह एव अस्ति, पटेन न आस्ति नास्ति. एकस्मिन् क्षणे क्षणिकमस्ति, अहे एकस्मिन् समये घट एव घटस्य ज्ञानम् एव भवति, अन्यस्मिन् क्षणे पटस्य ज्ञानं भवितुम् अर्हति. अतः वदन्ति जनाः वदन्ति एकस्मिन् चन्द्रमासं चन्द्रं द्रष्टुं शक्यते, अन्य न अरुन्धति नक्षत्रम्. एकस्मिन् समये चन्द्रस्य ज्ञानं भवति, न अरुन्धतीयाः ज्ञानं
इत्युक्ते एवमेव उदाहरणरीत्या दत्तवन्तः. आकाशे चन्द्रमस् इति वस्तुतः सकारान्तपदं, चन्द्रः अपि च अरुन्धतीनक्षत्रम् इत्यादीनि भवन्ति, परन्तु यदा चन्द्रमसं पश्यति तदा चन्द्रमसमेव पश्यति, न तु अरुन्धती इति आगच्छति. अस्तु महोदय, अधुना वदतु अयं घटः इति ज्ञानं, ज्ञानस्य विषयः कः? घटज्ञानकाले केवलं घटः ज्ञानस्य विषयः भवति. अस्तु, तत्र यद्यपि पटः वर्तते तथापि पटः ज्ञानस्य विषयः नास्ति. अस्तु, अत्र किम् उक्तं, मुख्य अंशः कः? ज्ञानस्य विषयतासम्बन्धः केन सह?
ज्ञानस्य विषयता घटेन सह,
न तु पटेन.
न पटेन.
तर्हि घटः विषयः इति वदामः, घटः विषयः इति चेत् विषयता कुत्र अस्ति?
घटे अस्ति.
घटे अस्ति, अस्तु, सम्यक् इति बोध्यम्, अस्तु इति मनसि भवेत्. तस्य आधारेण इतोपि किञ्चित् चर्चा भवति अग्रे गत्वा. घटः विषयः, अयं घटः इति ज्ञाने घटः विषयः चेत् विषयता घटे अस्ति इति मनसि भवेत्. अग्रे जगन्नाथमहोदय पठति वा? जगन्नाथमहोदय अस्ति किम्? अस्तु,
सम्यक् नास्ति भगिनी, अहं शृणोमि.
अस्तु, शिवराम महोदय अपि शृणोति इति किम्? अस्तु अस्तु, मेहुला महोदय पठतु कृपया.
आं भगिनि, तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता. ज्ञानस्य घटः विषयः, अतः घटे विषयता, अयमेव च सम्बन्धः. वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयी ज्ञानं, ज्ञाने विषयिता, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः. अत्र ज्ञान तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता. वयं एकस्मिन् पदार्थः पश्यामि चेत् तस्य ज्ञानं भवति. तत् ज्ञानस्य पदार्थे यः सम्बन्धः अस्ति तस्य सम्बन्धस्य नाम विषयता. अत्र ज्ञानस्य विषयः घटः अस्ति, अतः घटे विषयता अस्ति, अयमेव च सम्बन्धः, अपि च सम्बन्धस्य नाम अपि विषयता. वैपरीत्यनविचारे अपरस्मिन् विचारे यदि वयं द्रक्ष्यामि चेत् विषयः अस्य अस्ति इति विषयी ज्ञानं, विषयः इत्युक्ते घटः अत्र अस्ति इति विषयी ज्ञानमस्ति, तत्र ज्ञाने विषयिता अस्ति. घटः विषयः, ज्ञानं विषयी, अतः ज्ञाने विषयता अस्ति. तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयितासम्बन्धः. ज्ञानघटे यः सम्बन्धेन वर्तते तत्तु नाम विषयिता. अतः ज्ञाने विषयिता अस्ति, घटः विषयः अस्ति.
हा, घटः विषयः अस्ति इति समीचीनं. घटे कः धर्मः अस्ति महोदय?
घटे विषयता,
विषयता अस्ति. ज्ञानं, ज्ञानं विषयी इति वदति. विषयी किमर्थम् इति चेत् इनि, इनि इति प्रत्ययः, गुणः अस्य अस्मिन् वा इति वदामः खलु, तद्वद् विषयः अस्य अस्मिन् वा, विषयः अस्य अस्ति इति कृत्वा एतद् विषयी. विषयी किम्?
ज्ञानं,
ज्ञानं विषयी, ज्ञाने विषयिता. अस्तु, तर्हि अत्र इतोपि किञ्चित् वक्तव्यमस्ति. अधुना प्रश्नः अस्ति यद् उभयतासम्बन्धः कल्पितः खलु, ज्ञानस्य घटेन सह विषयतासम्बन्धः इति उक्तवन्तः, अपि च घटस्य ज्ञानेन कः सम्बन्धः? विषयितासम्बन्धः इति उक्तः. तर्हि एवं मनसि भवेत् यद् ज्ञानम् अपि च लिखन्तु इच्छन्ति चेत्, यतोहि अत्र नास्ति, भ्रमः भवितुमर्हति इति. ज्ञानस्य घटेन विषयतासम्बन्धः इत्युक्ते ज्ञानं विषयतासम्बन्धेन घटे अस्ति, ज्ञानं विषयतासम्बन्धेन घटे अस्ति, अपि च घटस्य ज्ञानेन सह विषयितासम्बन्धः इत्यस्य अर्थः कः इति चेत्, घटः विषयितासम्बन्धेन ज्ञाने अस्ति. अत्र ज्ञानम् अपि च तस्य विषयः, अनयोः मध्ये वृत्ति अनियामकसम्बन्धः इति उच्यते. वृत्ति अनियामकसम्बन्धः, वृत्तिः इत्युक्ते आधेयः, आधेयः इत्युक्ते वृत्तिः. अत्र वृत्तिः कः इति निश्चितः नास्ति. अस्तु, अत्र उदाहरणत्वेन भूतले पुस्तकम् अस्ति इति वदामि चेत्, अत्र भूतलम् अधिकरणं, पुस्तकम् इति आदेयः अथवा वृत्तिः. तत्र वृत्तिः निश्चिता अस्ति अथवा नियमिता अस्ति, इत्युक्ते भूतले पुस्तकमस्ति इति चेत् पुस्तकमेव वृत्ति अथवा आधेयः, पुस्तकमिति अधिकरणं नास्ति. परन्तु ज्ञानस्य स्थले तथा नास्ति. वृत्तिः अथवा आधेयः ज्ञानमपि भवितुमर्हति, अपि च घटः अपि वृत्तिः आधेयः भवितुमर्हति. इत्युक्ते चिन्तयन्तु, अस्तु, यदा यदा ज्ञानं नास्ति चेत् घटः अस्ति वा नास्ति वा इति न जानीमः खलु. घटः इति पदार्थः स्यात्, परन्तु घटस्य ज्ञानेन विना घटः इति पदार्थः अस्ति इति न जानीमः. तदर्थं घटस्य आधारः अस्ति ज्ञानम्. पुनः ज्ञानम् इत्यस्मिन् घटः अपि अस्ति, नो चेत् ज्ञानं कस्य ज्ञानम् इति न जानीमः इति कृत्वा ज्ञानमपि एकवारम् आधारः भवति, घटः अपि एकवारम् आधारः भवति. उभयोः मध्ये वृत्ति अनियामकसम्बन्धः इति वदामः. वृत्ति अनियामकः इत्युक्ते आधेयः न निश्चितः. तदर्थमेव विषयता विषयिता इति परस्परसम्बन्धः स्वीकृतः. ज्ञानं विषयतासम्बन्धेन घटे अस्ति, घटः विषयिता सम्बन्धेन ज्ञाने अस्ति इति मनसि भवेत्. अस्तु, अस्माकं शनिवासरवर्गे केनचित् उक्तं घटे अस्ति इति कृत्वा घटः तत्र अधिकरणमस्ति. तर्हि घटे किम् अस्ति? घटे विषयता इति धर्मः अस्ति. घटे विषयता इति धर्मः अस्ति इति कृत्वा ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति वक्तुं शक्यते. पुनः ज्ञाने विषयिता इति धर्मः अस्ति इति कृत्वा घटः विषयितासम्बन्धेन ज्ञाने वर्तते इत्यपि वक्तुं शक्यते इति वार्ता. इत्युक्ते उभयोः परस्पर अवलम्बनम् अस्ति. ज्ञानं विना घटः न प्रतीयते, घटः नास्ति चेत् घटात्मकं ज्ञानमेव न भवति इति कृत्वा ज्ञानं घटे अस्ति, घटः ज्ञाने अस्ति इति आगच्छति. अस्तु, अयं घटः इत्यस्मिन् ज्ञाने ज्ञानम् अस्ति विषयी, अपि च विषयिणी विषयः घटः अस्ति, घटः विषयः, विषये घटे पुनः विषयी ज्ञानमपि अस्ति इति बैडैरेक्षनल् सम्बन्धः, वृत्ति अनियामकसम्बन्धः इति वदामः. एवमपि चिन्तयितुं शक्नुमः.
भगिनी अत्र न लिखति न किं वदति त्वं
पुस्तके नास्ति, तदर्थम् उक्तवती लिखन्तु इच्छति चेत् इति. वृत्ति अनियामकसम्बन्धः इत्युक्ते वृत्तिः न निश्चितः. उदाहरणत्वेन वदामि, एकः पुत्र
वृत्तिः भगिनी वृत्तिः प्रथमता वा?
हा भगिनि
वृत्तिः वृत्ति इति धातोः
महोदय
इत्युक्ते अत्र वृत्ति अनियामकसम्बन्धः सर्वे पदार्थाः अपि च ज्ञानस्य सम्बन्धमध्ये वृत्ति अनियामिकता अपि अस्ति खलु.
प्रश्नः पुनः पृच्छतु.
न ज्ञाने ज्ञानस्य अपि च कोऽपि पदार्थस्य मध्ये
वृत्ति अनियामकता
वृत्ति अनियामिकता एव अस्ति.
सत्यं सत्यं. वृत्ति अनियामकः इत्युक्ते वृत्तिः न निश्चिता इति महोदय, आदेयः न निश्चितः. एकवारं ज्ञानम् आदेयः भवति, ज्ञानं विषये अस्ति इति वदामश्चेत् तदा ज्ञानं विषयता सम्बन्धेन घटे अथवा विषये अस्ति इति कृत्वा ज्ञानं वृत्तिः. घटः ज्ञाने अस्ति इति चेत् घटः वृत्तिः अथवा आधेयः, तत्र विषयिता सम्बन्धः इति आगच्छति. अस्तु, एवं चिन्तयन्तु, एकः पुत्रः अस्ति, पुत्रे कः धर्मः अस्ति?
पुत्रत्वं.
पुत्रत्वं. पिता. हा पिता अस्ति, पितरि कः धर्मः?
पितृत्व.
पितृत्वं. अधुना वयं किं वक्तुं शक्नुमः इत्युक्ते, पुत्रः पुत्रः पितरि पितृत्वसम्बन्धेन अस्ति इति. पितरि पितृत्वम् इति सम्बन्धः अस्ति, पुत्रः पितरि पितृत्वसम्बन्धेन वर्तते इति वक्तुं शक्नुमः. यतोहि पुत्रः इति एकाकी एव अस्ति चेत् कः पुत्रः इति आगच्छति खलु प्रश्नः. पुत्रः पितृत्वेन निरूपितः भवति. एवमेव पिता इति एकाकी अस्ति चेत् कस्य पिता इति प्रश्नः आगच्छति. तर्हि पिता पुत्रेण निरूपितः भवति इति कृत्वा तत्र पुत्रत्वम् इति सम्बन्धेन पुत्रे पिता अस्ति, पितृत्वम् इति सम्बन्धेन पुत्रः पितरि अस्ति इति वक्तव्यं भवति. यथा अवच्छेदक अवच्छेद्यभावः आसीत्, पुत्रः इति अधोभागे लिखतु उपरि पुत्रत्वं, पुनः पिता इति लिखतु उपरि पितृत्वं. तर्हि पुत्रनिष्ठ पुत्रत्वनिरूपित पितृत्वाश्रय आश्रयः पिता इति आगच्छति. तदर्थं पुत्रः
सम्बन्धः तत्र.
आं भगिनि, अस्तु,
स्वनिर्दिष्ट सम्बन्धः अस्ति तत्र.
हा
स्वनिर्दिष्टसम्बन्धः अस्ति तत्र खलु भगिनि?
स्वनिरूपित. हा हा हा, स्वनिरूपित, समीचीनं भगिनि, स्वनिरूपितसम्बन्धः इति वक्तुं शक्यते. इत्युक्ते पुत्रः पितरि पितृत्वसम्बन्धेन, अपि च पिता पुत्रे पुत्रत्वसम्बन्धेन, स्वनिरूपितपुत्रत्वसम्बन्धेन वर्तते इति वक्तुं शक्यते. एवमेव ज्ञानं विषये स्वनिरूपितविषयतासम्बन्धेन वर्तते, विषयः ज्ञाने स्वनिरूपितविषयितासम्बन्धेन अस्ति अथवा वर्तते इति वक्तव्यं भवति. तादृशवृत्ति अनियामकता अस्ति उभयोः मध्ये इति. अवगतं वा?
एकः प्रश्नः, गुणे द्रव्यं भवितुम् अर्हति वा? अत्र ज्ञानं गुणः, घटं घटः द्रव्यं, गुणं द्रव्ये वर्तते वा?
गुणः कुत्र वर्तते?
द्रव्यं गुणे वर्तते वा?
न, तथा कदापि नास्ति.
नो, अत्र
अवगतम् अस्तु भवान् चिन्तयति यत् घटः द्रव्यम् इति तर्हि कथं वा द्रव्यं भूत्वा ज्ञाने गुणे वर्तते इति भवतः प्रश्नः खलु अत्र घटः द्रव्यम् इति गुणे न वर्तते घटः इति विषयः इति स्वीकार्यः विषयीभूतः घटः ज्ञाने वर्तते इति वक्तुं शक्यते घटः इति विषयः ज्ञाने वर्तते द्रव्यरूपेण ज्ञाने न वर्तते परन्तु विषयरूपेण ज्ञाने वर्तते घटः इति सप्तसु पदार्थेषु कः इति इति प्रश्नः समीचीनः चिन्तनीयः कुत्रचित् महोदय इदानीं प्रतियोगिता अनुयोगिता इत्यादयः कुत्रापि न स्थापयितुं शक्नुमः पुष्पा भगिनी कृपया म्यूट् करोतु अस्तु हा केचन वदन्ति महोदय तत्र नूतनः पदार्थः एव स्वीकार्यः इति कुत्रचिदपि स्थापयितुं न शक्नुमः प्रतियोगिता अनुयोगिता विषयः इत्यादीनाम्
एवं तादात्म्यसम्बन्धः स्वरूपसम्बन्धः अपि
आं भगिनि सम्बन्धाः अपि तादात्म्यं स्वरूपः इति केचन नैयायिकाः नूतनपदार्थाः एव आवश्यकः तेषां कृते इति वदन्ति
भवती भगिनी सर्वे पदार्थविषयः भवितुं शक्नोति कर्म गुण ज्ञानस्य
सत्यम्
अपि
आं भगिनि इति सत्यमेव
अस्तु
यदि कोऽपि उत्क्षेपणं पश्यामि इति वदति चेत् व्यवहारः ज्ञानस्य आकारः भवति चेत् तत्र उत्क्षेपणमिति कर्म खलु
आम्
भवितुमर्हति तत्र
अस्तु
अस्तु सरला भगिनी भवती अग्रिमपरिच्छेदं पठतु कृपया
अस्तु इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति ज्ञानं दीपस्थानापनं विषयः प्रकाश्यः ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्ध सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते यस्मिन् सा प्रभा नास्ति सः न प्रकाशते अतः विषय इति न उच्यते इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति यथा वयम् इदानीं दृष्टवन्तः विषयता विषयिता सम्बन्ध शास्त्रीयरीत्या तस्य ज्ञानपदार्थस्य बोधनं भवति ज्ञानं दीपस्थापनम् इदानीम् एक उपमा दत्तमस्ति ज्ञान इव एक दीप अस्ति तस्य दीपस्य उपमा ज्ञानदीप उपमा अस्ति विषयः प्रकाशः या ज्ञानस्य या यः विषयः अस्ति तत् ज्ञानं प्रकाशयति सो ज्ञानेन यद् दर्शितं भवति तत् भवति प्रकाशः भवति विषयः इति या प्रभा दीपस्य विषये उपरि पतति तत् भवति विषयः प्रभा भवति अत्र सम्बन्ध यथा ज्ञानविषयतासम्बन्धेन घटे अस्ति सो या प्रभा चित्रं दत्तमस्ति ज्ञानदीपम् अस्ति एका प्रभा विषयता तत् भवति सम्बन्ध घट अत्र अस्ति तत् अस्ति विषयः सो ज्ञानघटे विषयतासम्बन्धेन अस्ति ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्ध सा प्रभा यस्मिन् पतति सा प्रकाश्य सो या सा प्रभा इत्मिन् विषयता सम्बन्धे यस्मिन् पतति घट उपरि पतति अत्र तत् अस्ति विषयः तस्य प्रकाशः सो ज्ञाने घटम् अस्ति विषयरूपेण ज्ञानस्य विषयः इति उच्यते सो ज्ञानस्य यः प्रभा ज्ञाने अस्ति ज्ञान घटे उपरि पतति सः भवति विषयः यस्मिन् सा प्रभा नास्ति सः न प्रकाशते यदि ज्ञानस्य प्रभा घटे उपरि पतति त घट भवति ज्ञानस्य विषयः पट उपरि न पतति तत् न भवति ज्ञानस्य प्रकाशः वा ज्ञानस्य विषयः अतः विषय इति न उच्यते सो यत्र प्रभा पतति तत् भवति विषय यत्र न पतति तत् ज्ञानस्य विषय न भवति
न भवति समीचीनं भगिनि पुनः एकवारं ज्ञानम् अत्र किं दीपस्थानमापन्नं ज्ञानम् अपि च ज्ञानस्य प्रभा का
ज्ञानस्य प्रभा विषयता
विषयता कुत्र पतति
विषयता विषयी विषये उपरि पतति
विषयस्य उपरि पतति
विषयस्य उपरि पतति घट अत्र अस्ति घट उदाहरणरूपेण
हा विषये पतति इति सप्तमी प्रयोगः कृतः खलु तेन एव अवगच्छामः सा प्रभा विषयता
घटे विषयता अस्ति सो सा प्रभा विषयता सम्बन्धेन घटे अस्ति
सा प्रभा एव विषयता भगिनि
आम् सा प्रभा एव विषयता सम्बन्धे अस्तु
अहं किं वक्तुम् इच्छामि इति चेत् घटे पतति इति सप्तमी प्रयोगः कृतः किल
आम्
घटे का पतति इत्युक्ते प्रभा पतति सा प्रभा विषयता
विषयता
अनेन अवगन्तुं शक्नुमः विषयता कुत्र अस्ति
विषयता घटे अस्ति
घटे अस्ति अथवा विषये अस्ति
विषये अस्ति
अस्तु तर्हि ज्ञानं प्रकाशस्य प्रेषकः ज्ञानं प्रकाशं प्रेषयति अनेन विषयः निरूपितः प्रकाश्यः भवति प्रकाशितः भवति इति
अस्तु
अस्तु समीचीनम्
एकः प्रश्नः आपन्नम् इत्युक्ते किम् उत्पन्नम् इत्युक्ते अरैस् स्पन्नं मूलशब्द इति
पद् इति धातुः महोदय आपन्नम् इत्युक्ते प्राप्तम् इति प्राप्तं दीपस्थानं प्राप्तम् इति वार्ता ज्ञानं दीपस्थानम् आपन्नम् इति
आप्नोति
न न न न पद् इति धातुः आप् इति धातुः भगिनि आप्नोति इत्यत्र आप् इति धातुः अत्र आपन्नम् इति हा प्रत्ययः पद् इति धातुः आपन्नम् उत्पन्नम् इति
भगिनी अत्र आत्मा तु द्रव्यं ज्ञानं तु गुणः न
सत्यं
ज्ञानं त्वं किं द्रव्यम् इति वदनम् आत्मा तु ज्ञानं प्रति द्रव्यं
सत्यम् आत्मनि एव ज्ञानं विद्यते इति आत्मनः गुणः ज्ञानम् इति तर्हि यद्यपि तत् सत्यम् अत्र अस्माकं वार्ता का इत्युक्ते ज्ञानं विषये अस्ति विषयः ज्ञाने अस्ति इति उभयता
परस्परसम्बन्धः
अस्ति
तत्र आत्मनि सम्बन्धः नास्ति
इति अधुना न चर्चयामः तावदेव वस्तुतः ज्ञानम् आत्मनि एव अस्ति इति अस्तु अन्यः कोऽपि अस्ति वा यः न पठितवान् अथवा पठितवती राधिका भगिनी अस्ति वा जगन्नाथमहोदय पठितुम् इच्छति अन्तिमपरिच्छेदम्
अस्तु प्रयत्नं करोमि इयञ्च विषयता रूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम् इयञ्च विषयतारूपा प्रभा घटे विद्यमान न ज्ञानेन विना भवति. अस्तु, ज्ञानं विना प्रभा न भवति इति विषयता ज्ञानविषय किमपि विषय ज्ञानं विना किमपि विषय न भवति इति.
अत्र महोदय वार्ता सरला अस्ति. ज्ञानम् इति दीपम् अस्ति चेत् दीपेन विना प्रभा भवति वा?
न भवति.
एवमेव ज्ञानं दीपस्थानम् आपन्नं, ज्ञानेन विना सा प्रभा विषयतारूपा प्रभा भवति वा?
न भवति.
तावदेव सरलमस्ति, अन्यत् किमपि न. ज्ञानं विषयतां प्रेषयति, प्रभायाः प्रेषकः ज्ञानम्.
अस्तु,
अग्रे
कस्य अयं प्रकाशः इत्युक्तः ज्ञानस्य इति उच्यते. कस्य एषः प्रकाशः वयं पृच्छामश्चेत् ज्ञानस्य प्रकाशः एतद् विषयता प्रभा इति, विषयता रूपप्रभा इति उच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. प्रेषकं ज्ञानं प्रकाशस्य, ओ ज्ञानं प्रकाशस्य, ज्ञानमेव प्रकाशं, प्रकाशः प्रकाशं कुत्रापि प्रेषयति. तर्हि ज्ञानं प्रेषक निरूपकम् इति एतस्मिन् सन्दर्भे तस्य प्रेषणमेव न, प्रेषकं यद् ज्ञानमस्ति तस्य संज्ञा भवति निरूपकम् इति.
हा, तत्र निरूपकम् इति इत्युक्ते साधारणरीत्या महोदय, यः निरूपयति सः निरूपकः, अथवा यद् यद् निरूपयति तद् निरूपकम्. एवमेव प्रकाशस्य प्रेषकं ज्ञानम् इत्युक्ते प्रकाशं प्रेषयति कं निरूपयितुं, घटं निरूपयितुं, खलु? तत्र नूळ् इति प्रत्ययः, यथा गायकः नायकः, यः निरूपयति निरूपकः, अथवा यद् निरूपयति निरूपकम्. अत्र निरूपकं किं?
ज्ञानं
कं निरूपयति?
प्रकाशः
इति सत्यम्, इति सत्यम्. अस्तु, प्रकाशं निरूपयति. अस्तु, अग्रे पठतु. तथा च,
तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्. घटनिष्ठविषयता, घटे विषयता भवति, तस्य निरूपकं ज्ञानम्. ओके, निरूप्यनिरूपकं भावं यदि चिन्तयामश्चेत् घटः निरूप्यः भवति, ज्ञानं निरूपकं भवति.
समीचीनं महोदय. ज्ञानं किं करोति? किमपि निरूपयति खलु. घटः इति वस्तु भवेत्, जगति सर्वत्र भवेत्, जगति कुत्रचित् भवेत्, परन्तु यावत्पर्यन्तम् अस्माकं घटविषयकं ज्ञानं न जायते तावत्पर्यन्तं घटः इति वस्तु अस्ति इति अपि न जानीमः. अतः ज्ञानं निरूपकं, घटः ज्ञानस्य आधारेण निरूपितः भवति इत्यर्थमेव घटः ज्ञाने अस्ति इति वदामः. अपि च सर्वेषां ज्ञानानां कोऽपि विषयः आधारीभूतः भवति इति कृत्वा ज्ञानमपि विषये अस्ति इति वक्तुं शक्नुमः. अत्र ज्ञानं निरूपकमस्ति. कं निरूपयति इत्युक्ते घटनिष्ठविषयतानिरूपकं, विषयतां निरूपयति अथवा प्रेषयति, प्रभां प्रेषयति, प्रेषकं निरूपकं ज्ञानं. कं प्रेषयति अथवा निरूपयति? घटनिष्ठ विषयतां निरूपयति, अतः घटनिष्ठविषयतानिरूपकं ज्ञानम् इति आगच्छति. अस्तु, यथा निरूप्यनिरूपकभावं कल्पयामश्चेत् घटनिष्ठविषयतानिरूपितविषयिता आश्रयः ज्ञानम् इत्यपि वक्तुं शक्यते, अथवा ज्ञाननिष्ठविषयिता निरूपितविषयताश्रयः घटः इति वक्तुं शक्यते. अत्र सरलरीत्या लघुना मार्गेण घटनिष्ठविषयतानिरूपकं ज्ञानम् इति उक्तवन्तः. यतोहि ज्ञानं कमपि किमपि निरूपयति, विषयतां निरूपयति. अस्तु, बुद्धं वा कोऽपि प्रश्नः? अस्तु, समीचीनं. तर्हि कृपया गृहे इमं भागं पुनः पठन्तु. वारं वारं पठनेन विशदं भवति इति मम विश्वासः सर्वम्. अस्तु,
धन्यवादः भगिनि.
धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः.